अबोध्यग्निशमिधा जनानां प्रतिधेनुमिवायति मुशासं यभ्वा इव प्रवयां जहानः प्रभानवस्तत्प्रतिनाकमच्च प्रभुजयन्तं महाविबोधां मुरैरमूरं पुरा धर्माणं नयन्तं गीर्भिर्वनाधियं धा हरीष्मश्रुणा वर्मणा धर्तितत्मम् शुक्रं ते अन्यत् यजतं ते अन्यत् विशुरूपे अहनि जौरिवासी विश्वा हि माया अवशिष्टधाम भद्राति पूषन् इहिरातिरस्तु दशं तन्निगोः षष्ट्वत्तमं हव्यमानाय साध स्यान्नः सूनस्तनयनो विजाग्ने सा ते सुमतिर्भूतस्तेऽस्मि प्रभूता जातो महानभो भिन्न षड्मासीरद्दपां विवर्ते सद्दद्योधायुषु ते वयांसि यन्तावसूनि विरते तनुप प्रसाम्राज्यस्मसुरश्च प्रशस्तं पुंसः कृष्टिनानुमाद्यस्य इन्द्रस्येव प्रतवत्कृतानि बन्धद्वारा बन्धमाना विवष्टु अरण्यो निहितो जातवेद गर्व इवेत सुभ्रतो गीर्भिणीभिः दिवे दिवे ईड्यो जागृवद्भिः हविर्मषभिर्मनुषेभिरग्निः